शतमानं भवति शतायुः पुरुष शतेन्द्रिय आयुष्येवेन्द्रिये प्रतितिष्ठति।
ఇరువురై పుట్టి ఒకరుగా